एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुति रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली हिमालयात आसमुद्रम रक्षायै एकीकृतानुकूल कार्ययोजना निर्मातुम् विश्व समुदायम् अनुरुणद्धि। संयुक्त राष्ट्रसंघस्य 79 महासभायाः अन्तर्गते उच्चस्तरीयोपवेशे समुद्रस्तरस्य वर्धनस्य कारणानि उत्पन्न समाहोयाश्चेति विषये सम्बोधयन् प्रधानमन्त्री ओली विश्वव्यापी रूपेण कार्बन वायोः उत्सर्जनस्य कारणेन नेपालस्य हिमालयाः द्रवीभूयमानाः सन्तीति उदय समुद्रस्तरस्य वर्धनस्य कारणानि चर्चयन् प्रधानमन्त्री ओली एशिया क्षेत्रस्य द्वि तृतीयांश हिमालयानां द्रवीभवनेन सहैव न्यूनतोऽपि 10 नद्यः शुष्काः विलुप्तं गताः इत्यतः हिमालयाद् आसमुद्रं भूम्याः रक्षायै एकीकृत जलवायुनुकूल कार्ययोजनाया अपरिहार्यता स्थिति प्रत्यपादयत्। प्रधानमन्त्री ओली हिमालयाः भूमेः प्राकृतिकोर्ज प्रदायकः सन्तीत्यतः हिमालयान् द्रविभवनात् रोद्धुं समुद्रस्तरस्य वर्धनम् अवरोद्धुं च विश्वव्यापी संयुक्त प्रयासः आवश्यको स्थिति बलं प्रादात्। अत्रान्तरे प्रधानमन्त्रिणा ओलिना ह्य एव राष्ट्रसंघस्य जलवायु परिवर्तनात् असुरक्षित मञ्चस्य उपवेशः सम्बोधितो वर्तते। उपवेशेऽस्मिन् जलवायोः विषयम् उत्थापयन् प्रधानमन्त्री ओली विकसित राष्ट्रे पेरिस संविधायाः अनुसारेण जलवायु वित्तकोषे अतिरिक्त वित्तस्य विनियोजनाय विशेषेण बलं प्रादात्। तदवसरे प्रधानमन्त्री ओली नेपाले आयोक्ष्यमाणे सगरमाथा शिखर संवादे सहभागिनो भवितुं मञ्चस्य सदस्य राष्ट्र प्रमुखेभ्यः सर्वकार प्रमुखेभ्यश्च निमन्त्रणां प्रादात्। प्रधानमन्त्री ओली विकसित राष्ट्रेष् अल्पविकसित राष्ट्रेष् च विद्यमानायां सेवायां वर्तमानस्य विभेदस्य अन्ताय बलं ददाति। प्रधानमन्त्री ओली विभेदस्य कारणेनैव सर्वेभ्य समान स्वास्थ्य सेवां प्रदातुं काठिन्यं सम्भूतमस्ति इति अवदत्। संयुक्त राष्ट्रसंघस्य 79 महासभायां भागग्रहणस्य क्रमे न्यूयॉर्क नगरे विद्यमानः प्रधानमन्त्री ओली माउण्ट सिनाई चिकित्सालयेन एम्प्याथ नेपालेन च आयोजितं कार्यक्रमं सम्बोधयन् विज्ञान प्रविधौ व्यापक रूपेण सुधार विहित सन्नपि अल्पविकसित राष्ट्रे स्वास्थ्य पूर्वाधार क्षेत्रस्य समाहोयाः प्रतिकरणीयाः सन्तीति अवदत्। नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः भाषते प्रधानमन्त्रिणः केपी शर्मा ओलिनः अमेरिका भ्रमणं सफलतया संचरति। प्रेस चौतारी संस्थया ह्य धनगढ़ी नगरे आयोजिते पत्रकार सम्मेलने महासचिवः पोखरेलः प्रधानमन्त्रिणः विरूद्धे सामाजिक सञ्जालानां माध्यमेन भ्रमपूर्णाः प्रचाराः जायमानाः सन्तीति चर्चयन् अमेरिकादेशे कीदृशस्यापि विरोध प्रदर्शनस्य अवरोधस्य च स्थितिर्नास्तीति प्रावोचत्। महासचिवः पोखरेलः सहकारी संस्थायाः वित्तापचलन प्रकरणे अनुसन्धानम् अवरोद्धुं जायमानाः गतिविधयः विधिशासनस्य उपहासो विद्यते इति अभाषत। महासचिवः पोखरेलः अभियोगानन्तरम् अनुसन्धान प्रक्रियायां न गच्छामीति कथनं त्रुटिपूर्णं वर्तते इति चर्चयन् सहकारी प्रकरणे राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामिछाने विधेन अनुसन्धाने सहयोगः कर्तव्यः इति अवोचत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा समेषाम् अधिकाराणां संरक्षणत्वेन संविधान संशोधनं भविष्यतीति प्रतिबद्धतां विनक्ति। पर्सा जनपदस्य वीरगंज नगरे निर्मितं आत्माराम ओझा दुखा सहने स्मृति भवनं नेपाली कांग्रेस दलस्य पर्सा क्षेत्रीय दल कार्यालय भवनं च ह्य उद्घाटयन् सभापतिः देउवा समयानुकूल संविधानस्य संशोधनाय सर्वै दलैः सहयोगो विधास्यते इति विश्वासं व्यक्तवान्। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह निगदति सर्वेषां क्षेत्राणां विकासाय गतिशीलतायै स्थिरतायै च राजनीतिक स्थिरतायाः आवश्यकता भवति। भक्तपुरे ह्यस्तन दिवसादारब्धस्य भक्तपुर सांस्कृतिक पर्यटन व्यापार महोत्सवस्य उद्घाटनं विदधान कार्यवाहक प्रधानमन्त्री च सिंह वर्तमान सर्वकारेण जनतायाः पक्षे कार्यं विधातुं संसदि विद्यमानानि विधेयकानि अग्रे सार्यन्ते इति चर्चयन् समग्रार्थतन्त्रं गतिशीलं विधातुं सर्वकारेण कार्यं विधीयमानमस्तीत्यतः निर्भयेन निवेशं कर्तुं व्यवसायिनः अनुरुणात्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं राष्ट्रिय दलिताआयोगस्य अध्यक्षेण देवराज विश्वकर्मा इत्यनेन आयोगस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। शीतलनिवासवर्तिनी राष्ट्रपतिभवने ह्य आयोजिते कार्यक्रमे राष्ट्रपतेः पौडेलस्य समक्षम् आयोगस्य अध्यक्षः विश्वकर्मा एतद् विक्रमवर्षीयम् आयोगस्य वार्षिकं प्रतिवेदनं प्रस्तुतवान् इति राष्ट्रपति कार्यालयस्य प्रवक्त्रा शैलजा रेग्मी भट्टरा इत्यनया प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। गृहमन्त्री रमेश लेखकः भाषते अध्यागमन कार्यालयेन स्वकीया कार्यशैली परिमार्जयितुम् आवश्यकता वर्तते। त्रिभुवनान्तरराष्ट्रिय विमानस्थले स्थितस्य अध्यागमन कार्यालयस्य स्थलगत निरीक्षणं विदधानो मन्त्री लेखकः अध्यागमन कार्यालयस्य विषये भ्रमपूर्णः टिप्पण्यः जायमानः सन्तीत्यतः अस्मिन् विषये सावधानताम् अवलम्बितुम् अनुरुणत्। तदवसरे गृहमन्त्रिणा लेखकेन विमानस्थले कार्यरतैः अन्यैः सर्वकारीय संयन्त्रैः सह समन्वयं विधाय कार्यं कर्तुम् अध्यागमन विभागस्य कर्मचारिणः निर्दिष्टाः वर्तन्ते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डेः भाषते नैजक्षेत्रेण सह सहकारेण एव देशः समृद्धिं प्राप्नोति। पोखरावर्तिना उद्योग वाणिज्य संघेन ह्य आयोजिते कार्यक्रमे मन्त्री पाण्डे निवेशस्य प्राचुरेण देशे वृत्त्युपार्जनस्य अवसरा सृज्यन्ते इति अभाषत। कञ्चनपुर बाजुरा दाङ जनपदेषु वज्रपातेन चत्वारो जना मृता सन्ति। नेपाले अद्यतः चतुर्दिवसं यावत् आराष्ट्रं वातावरणे परिवर्तनं भवतीति जलवायु विज्ञान विभागेन ज्ञापितम् वर्तते। महाशाखया विशेष सूचनां प्रकाश्य वातावरणे परिवर्तनानन्तरं वृष्टेः कारणेन 50 जनपदानि उच्च संकटे वर्तन्ते इति ज्ञापितमस्ति।